पूर्वस्यां कक्षायां अस्माभिः कर्तरिकर्मव्यतिहारे हलो केळिस्ता इदेया ಹೌದಾ ಪೂರ್ವಸ್ಯಾಂ ಕಕ್ಷಾಯಾಂ ಅಸ್ಮಾಭಿಃ ಕರ್ತರಿ ಕರ್ಮ ವ್ಯತಿಹಾರೆ ವ್ಯತಿಹಾರೆ ಇತಿ ಸೂತ್ರಸ್ಯ ಅಧ್ಯಯನಂ ಕೃತಂ ಇದಾನೇ ಶ್ರೂಯತೆ ವಾ ಇದಾನೇ ಶ್ರೂಯತೆ ವಾ ಇಪ್ಪ ಕೇಕರದ ಅಸ್ತು ಪದ್ಮಾ ಮಮ್ಮಿ ಬಂದಾಳ ಇಲ್ಲಿಯಾ ಇದೇ ಆಡಿದ್ಲೇ ಆರು ಮಣ್ಣ ಆರಂಭ ಇಟ್ಟಿರೋದು சொல்லுங்க மம்மி
107-931-427 வரவே இல்ல
பூர்வஸ்யாம் கக்ஷாயாம் அஸ்மாபிஹி கர்த்தரி கர்ம வ்யதிஹாரே இதி சூத்ரஸ்ய அத்யயனம் கிருதம் ಇದಾನಿಂ ನಗತಿ ಹಿಂಸಾರ್ಥೇಭ್ಯಃ ಇತಿ ಅಗ್ರಿಮಂ ಸೂತ್ರಂ ವಿದ್ಯತೆ ನಗತಿ ಹಿಂಸಾರ್ಥೇಭ್ಯಃ ಇತ್ಯತ್ರ ಗತಿಶ್ಚ ಹಿಂಸಾ ಚ ತಯೋಃ ಗತಿ ಹಿಂಸೆ ತೇ ಅರ್ಥೌ ಯೇಷಾಂ ತೇ ಗತಿ ಹಿಂಸಾರ್ಥಾಃ ತೇಭ್ಯಃ ಗತಿ ಹಿಂಸಾರ್ಥೇಭ್ಯಃ ಇತಿ ಸಮಾಸಚ್ಛೇದ ಕೋಪಿ ವಕ್ತುಮರ್ಹತಿ ವಾ ಗತಿಶ್ಚ ಹಿಂಸಾ ಚ ತಯೋಃ ಗತಿಹಿಂಸೆ ತೇ ಅರ್ಥೌ ಯೇಷಾಂ ತೇ ಗತಿಹಿಂಸಾರ್ಥಾಃ ತೇಭ್ಯಃ ಗತಿಹಿಂಸಾರ್ಥೇಭ್ಯಃ ಏವಂ ನ ಇತಿ ಅವ್ಯಯಂ ಗತಿಹಿಂಸಾರ್ಥೇಭ್ಯಃ ಇತಿ ಪಂಚಮಿ ಬಹುವಚನಂ ಕರ್ತರಿ ಕರ್ಮ ವ್ಯತಿಹಾರೆ ಇತ್ಯಸ್ಮಾತ್ ಕರ್ಮ ವ್ಯತಿಹಾರೆ ಇತಿ ಪದಂ ಸ್ವೀಕ್ರಿಯತೆ ಅನುದಾತ್ತ ಗಿತ ಆತ್ಮನೇಪದಂ ಇತ್ಯಸ್ಮಾತ್ ಆತ್ಮನೇಪದಸ್ಯ ಅನುವರ್ತಿ ಭವತಿ इदानीम अस्य सूत्रस्य अर्थः कः इत्युक्ते गति गत्यर्थे हिंसार्थे च गत्यर्थ प्रतिपाद्ये हिंसार्थ प्रतिपाद्ये धातवः यदि भवन्ति कर्मव्यतिहारे सति आत्मनेपदं न भवति। इदानीं पाणिनिना किं कृतं कर्तरि कर्म व्यतिहारे इति उत्सर्गसूत्रम्। इदानीं नगति हिंसार्थेभ्यः इति तत्र निषेधात्मकं सूत्रम् इत्युक्ते अपवादात्मकम्। पाणिनिः वदति नगति हिंसार्थेभ्यः कर्मव्यतिहारे सर्वत्र आत्मनेपदम् इति नियमः तु अस्ति, परन्तु यदा गत्यर्थकधातवः सन्ति हिंसार्थकधातवः सन्ति तदा आत्मनेपदम् न भवति इति सूत्रार्थः। इदानीम् अत्र अस्य उदाहरणं व्यतिगच्छन्ति व्यतिघ्नन्ति इति। व्यतिगच्छन्ति इत्यत्र केन सूत्रेण आत्मनेपदम् प्राप्तम्? इदानीं व्यतिगच्छन्ति इत्यस्य अर्थः एकस्य गमनस्थाने अन्यः गच्छति इत्यर्थः। इदानीं वि अति उपसर्गसहित कर्मव्यतिहारे द्योत्ये अत्र कर्तरि कर्मव्यतिहारे इति सूत्रेण आत्मनेपदं प्राप्तम्, तदा नगति हिंसार्थेभ्यः इति निषेधः अनेन सूत्रेण भवति। अतः तस्मात् कारणात् लट्लकारे कृते व्यतिगच्छन्ति इत्येव रूपम्। एवमेव व्यतिघ्नन्ति इत्यपि अस्ति। हनहिंसागत्योः इति अदादिगणीय धातोः हनहिंसागत्योः हिंसार्थकमपि अस्ति गत्यर्थकमपि अस्ति। इदानीं कर्तरिकर्मव्यतिहारे इत्यनेन सूत्रेण आत्मनेपदं प्राप्तम्, परन्तु कर्तरिकर्मव्यतिहारे इति आत्मनेपदे प्राप्ते तदा नगति हिंसार्थेभ्यः इति सूत्रेण निषेधः। अतः इदानीं व्यतिघ्नन्ति इति रूपं बहुवचने भवति। अवगतं वा? इदानीं प्रतिषेधे हसादीनाम् उपसंख्यानम्। वार्तिककारः वदति इदानीं प्रतिषेधः कृतः हसादिधातूनां हसादीनामपि उपसंख्यानं कर्तव्यम्, न केवलं गतिहिंसार्थेभ्यः परन्तु हसादीनामपि उपसंख्यानं कर्तव्यम्। तदा उच्यते हसादयः के, प्रश्नः समुद्भवति हसादयः के इति। हसादयः हसप्रकाराः शब्दक्रियाः। हसप्रकाराः अत्र हसप्रकाराः शब्दक्रियाः। हसप्रकाराः शब्दक्रियाः के इति प्रश्ने कृते व्यतिहसन्ति व्यतिजल्पन्ति इति उदाहरणं दत्तम्। व्यतिहसन्ति इत्युक्ते परस्परं हसन्ति इत्यर्थः। इदानीं हसने धातुः अत्र वि अति उपसर्गसहित कर्मव्यतिहारे द्योत्ये कर्तरि कर्मव्यतिहारे इति आत्मनेपदे प्राप्ते नगति हिंसार्थेभ्यः इति सूत्रेण नगति हिंसार्थेभ्यः इति सूत्रस्थ प्रतिषेधे हसादीनाम् उपसंख्यानमिति वार्तिकेन अत्र निषेधः। कस्य निषेधः? आत्मनेपदनिषेधः। एवमेव व्यतिजल्पन्ति इत्यपि अस्ति। व्यतिजल्पन्ति इत्यत्रापि प्रतिषेधे हसादीनाम् उपसंख्यानम् इत्यनेन वार्तिकेनैव निषेधः। इदानीम् अग्रिमवार्तिकमस्ति हरतेरप्रतिषेधः इति। हरतेरप्रतिषेधः इत्यत्र उदाहरणं दत्तं सम्प्रहरन्ते राजानः इति। इदानीं हृ धातुः अस्ति, तस्य हिंसार्थकः अस्ति. हृ धातोः हिंसार्थे सत्यपि नगति हिंसार्थेभ्यः इति निषेधे सत्यपि हरतेरप्रतिषेधः इति वार्तिकेन किं भवति? प्रतिषेधः निषिध्यते. प्रतिषेधः निषिध्यते नाम अत्र आत्मनेपदं भवति इत्यर्थः. अवगतं वा? पद्मावती मामि, हरतेरप्रतिषेधः, संप्रहरन्ते राजानः, संप्रहन्ते राजानः इत्यत्र ह्री हरणे धातुः अस्ति, परस्मैपदी अस्ति, तत्र समुपसर्गसहित कर्मव्यतिहारे द्योत्ये कर्तरि कर्मव्यतिहारे इत्यनेन आत्मनेपदी प्राप्ते हरतेरप्रतिषेधः नगति हिंसार्थेभ्यः इति निषेधे प्राप्ते हरतेरप्रतिषेधः इत्यस्मात् वार्तिकात् निषेधस्य निषेधे प्राप्ते आत्मनेपदविधिः भवति. एवं संप्रहरन्ते राजानः इति रूपसिद्धिः भवति. अत्र परीक्षायाम् एवमेव लेखनं कर्तव्यम्. यथा मया उच्यते, प्रथमं केन सूत्रेण प्राप्तिः, तदनन्तरं निषेधः, तदनन्तरं निषेधस्य निषेधः, केन वार्तिकेन, केन सूत्रेण वा, इत्येतेन क्रमेण एव लेखनीयम्. पद्मामामी आगतवती वा? कदाचित् एतत् कनेक्शन् कनेक्शन् सरिल्या. ओके, फोन ले कटिकला ना. मम्मी இல்ல, அதான் பரவாயில்ல, நீங்க போன்ல கேட்டுங்க, நான் போன் ஆன் பண்ணி வைக்கிறேன், நீங்க போன்ல கேட்டுங்க. இதானீம் இதரேதரான்யோன்யோபபதாச்ச இதி சூத்திரம் பிரதி கச்சாமஹ. தத்ர இதரேதரான்யோன்யோபபதாச்ச इतरेतरश्च अन्योन्यश्च तयोः इतरेतरयोः न इतरेतरश्च अन्योन्यश्च इतरेतरान्यो अन्योन्य इति अस्ति किल. इतरेतरश्च अन्योन्यश्च इतरेतरान्योन्यौ. इतरेतरश्च अन्योन्यश्च इतरेतरान्योन्यौ. तदनन्तरं तौ उपपदे यस्य, तौ उपपदे यस्य तत् इतरेतरान्योन्योपपदम्। तौ उपपदे यस्य तत् इतरेतरान्योन्योपपदम्। तस्मात् इतरेतरान्योन्योपपदात्। अवगतं वा समासच्छेदः? अत्र इतरेतरश्च अन्योन्यश्च तयोः इतरेतरान्योन्यौ तौ उपपदे यस्य तत् इतरेतरान्योन्योपपदम्। तस्मात् इतरेतरान्योन्योपपदात्। इतरेतरान्योन्योपपदात् च इति पदद्वयम् अत्र अत्र च इति न आत्मनेपदमिति अस्तु अस्तु न च इत्यस्मात् न इति अनुवर्तते इत्युक्ते न आत्मनेपदम् इति निषेधः अनुवर्तते इत्यर्थः। इदानीम् अत्रापि अनुदात्तकित आत्मनेपदम् इत्यस्मात् आत्मनेपदस्य अनुवृत्तिः नगति हिंसार्थेभ्यः इत्यस्मात् न इत्यस्य अनुवृत्तिः इतरेतरान् इदानीम् अस्य सूत्रार्थः कः इत्युक्ते इतरेतर उपपदात् अन्योन्य उपपदात् धातोः अपि आत्मनेपदं न भवति इति अस्माभिः अर्थः स्वयमेव लेखनीयः। अत्र कौमुदीकारः सूत्रार्थं न ददाति। इतरेतरोपपदात् अन्योन्योपपदात् धातोः अपि आत्मनेपदं न भवति। तत्र उदाहरणमस्ति इतरेतरस्य व्यतिलुनन्ति अन्योन्यस्य व्यतिलुनन्ति इति अस्ति। इतरेतरस्य व्यतिलुनन्ति इत्युक्ते अन्यस्य लवणम् अन्यः करोति इत्येव अर्थः। इतरेतरस्य व्यतिलुनन्ति इतरेतरशब्दः यदि साक्षात् उपयुज्यते इतरेतरशब्दस्य उपपदे तदा लुञ् छेदने इत्यस्मात् धातोः यद्यपि कर्मव्यतिहारे द्योत्ये तथापि अत्र इतरेतरान्योन्योपपदाच्च इति सूत्रेण आत्मनेपदनिषेधः। इदानीं वार्तिकारः किं करोति? परस्परोपपदाच्चेति वक्तव्यम्। वार्तिकारः वदति इतरेतर अन्योन्यस्य इत्यादि पद स्वीकारे सत्यपि परस्पर इति शब्दस्यापि उपसंख्यानं कर्तव्यम्। परस्पर इत्यपि वक्तव्यम्। तत्र परस्परस्य व्यतिलुनन्ति इत्यपि वक्तव्यम् इति वार्तिककारः वदति। एवम् अत्र कौमुद्याम् उदाहरणमस्ति इतरेतरस्य अन्योन्यस्य परस्परस्य व्यतिलुनन्ति। इदानीम् अवगतं वा? सुलभमस्ति। इदानीं बहु सुलभमस्ति। सूत्रद्वयं वा सूत्रत्रयं वा किञ्चित् क्लिष्टमस्ति, सर्वं सुलभमस्ति। केवलं इन्फर्मेशन् एव मया दीयते, तत्र विशेषः किमपि न उच्यते। यत् पुस्तके यदस्ति तदेव उच्यते। नेर्विषः इति अग्रिमसूत्रम्। अत्र उच्यते नी उपसर्गसहित विष्धातोः आत्मनेपदं भवति। इदानीं निषेधप्रकरणं समाप्तम्। कर्मव्यतिहार ಪ್ರಕರಣಂ ತಸ್ಯ ನಿಷೇಧ ಪ್ರಕರಣಂ ಇತ್ಯಾದಿ ಸಮಾಪ್ತಂ. ಇದಾನಿಂ ನೂತನ ಪ್ರಕರಣಂ ಆರಭ್ಯತೆ. ಆತ್ಮನೇಪದ ಪ್ರಕರಣೇ ಏವ ನೇರ್ವಿಷಃ ಇತಿ ನೂತನ ಸೂತ್ರಂ. ನೀ ಉಪಸರ್ಗ ಸಹಿತ ವಿಷ್ ಧಾತೋಃ ಆತ್ಮನೇಪದಂ ಭವತಿ. ಇದಾನಿಂ ವಿಷ್ ಧಾತುಃ ವಿಷ ಪ್ರವೇಶನೆ ಇತಿ ಧಾತುಃ. ಸ್ವಭಾವತಃ ಪರಸ್ಮೈಪದಿ ಧಾತುಃ ಏಷಃ ವಿಶತಿ ವಿಶತಃ ವಿಶಂತಿ ಇತ್ಯಾದಿ ರೂಪಾಣಿ ಭವಂತಿ. ತತ್ರ ಶೇಷಾತ್ ಕರ್ತರಿ ಪರಸ್ಮೈಪದಂ ಇತ್ಯನೇನ ಏವ ಅತ್ರ ಪರಸ್ಮೈಪದಿ ಪ್ರಾಪ್ತೆ ಅತ್ರ ನೇರ್ವಿಷಃ ಇತ್ಯನೇನ ಆತ್ಮನೇಪದಂ ಭವತಿ. ನಿವಿಷತೆ ಇತಿ ಉದಾಹರಣಂ ತತ್ತು ಜ್ಞಾಯತೆ. ನೀ ಉಪಸರ್ಗ ಸಹಿತ ವಿಶ್ ಧಾತುಃ ಅಸ್ತಿ. ಇದಾನಿಂ ಅಸ್ಮಾಭಿಃ ಪರೀಕ್ಷಾರ್ಥಂ ಕಿಂ ಕರಣೀಯಂ ಇತ್ಯುಕ್ತೆ ತತ್ರ ಏಕಃ ಕೋಷ್ಟಕಂ ಅಸ್ಮಾಭಿಃ ನಿರ್ಮಾತವ್ಯಂ ಆತ್ಮನೇಪದ ಪ್ರಕರಣಸ್ಯ. ಕೋಷ್ಟಕೆ ಕೇಕೆ ಭಾಗಾಃ ಸ್ಯುಃ ತತ್ರ ಉದಾಹರಣಂ ನಿವಿಷತೆ ಕೇನ ಸೂತ್ರೇಣ ಆತ್ಮನೇಪದಂ ನೇರ್ವಿಷಃ ಇತಿ ಸೂತ್ರಾರ್ಥಃ ಕಸ್ಮಿನ್ ಅರ್ಥೇ ಭವತಿ ಆತ್ಮನೇಪದಂ ಭವತಿ ಇತ್ಯಾದಿ ಉದಾಹರಣಂ ವಾರ್ತಿಕಂ ಇತ್ಯಾದಿ ಏಕಂ ಕೋಷ್ಟಕಂ ಕೃತ್ವಾ ಸ್ಥಾಪನೀಯಂ ಭವತಿ. ತದಾ ಏವ ಸಮ್ಯಕ್ ಜ್ಞಾತುಂ ಶಕ್ಯತೆ. ನೋ ಚೇತ್ ಅತ್ರ ಹರಿಕಥಾ ಶ್ರವಣಮಿವ ಭವತಿ. ಮಯಾ ಇದಾನೀಂ ಉಚ್ಯತೆ ಸರ್ವಂ ಯತಃ ಅತ್ರ ಕ್ಲೇಶಃ ನಾಸ್ತಿ ಸರ್ವಂ ಜ್ಞಾಯತೆ ಸರ್ವೇಭ್ಯಃ ಸರ್ವಂ ಜ್ಞಾಯತೆ ಯತೋ ಹಿ ಭವತ್ಯಃ ತತ್ರ ಪರಿಭಾಷೆಂದು ಶೇಖರಾದಿ ಗ್ರಂಥಾನ್ ಪಠಂತಿ ಇದಾನೀಂ. ಅತಃ ಪ್ರೌಢಗ್ರಂಥ ಪಠನ ಸಾಮರ್ಥ್ಯಂ ಯದಾ ಆಗಚ್ಚತಿ ತದಾ ಕೌಮುದಿ ಗ್ರಂಥೇ ಸುಲಭಂ ಭವತಿ. ತದಾ ಕಿಂ ಭವತಿ ಸರ್ವಂ ಜ್ಞಾತಂ ಅಸ್ಮಾಭಿಃ ಇತಿ ಭವತಿ. ಪರಂತು ಪರೀಕ್ಷಾ ಲೇಖನ ಸಮಯೇ ನೇರ್ವಿಷಃ ಇತಿ ಸೂತ್ರಂ ನಾಗಚ್ಚತಿ ಇತ್ಯುಕ್ತೆ ವಿಸ್ಮರಣಂ ಭವತಿ. ತದರ್ಥಂ ಕೋಷ್ಟಕ ನಿರ್ಮಾಣಂ ಕೃತ್ವಾ ಸ್ಥಾಪನೀಯಂ ತದಾ ಏವ ಅಸ್ಯ ಇಷ್ಟಸಿದ್ಧಿಃ ಭವತಿ. ಅಗ್ರಿಮಸೂತ್ರಂ ಪರಿವ್ಯಯೇಭ್ಯ ಕ್ರಿಯಃ ಇತಿ ಅಸ್ತಿ. ಅಕರ್ತ್ರಾಭಿಪ್ರಾಯಾರ್ಥಮಿದಂ ಪರಿಕ್ರೀಣೀತೆ ವಿಕ್ರೀಣೀತೆ ಅವಕ್ರೀಣೀತೆ ಇತಿ ಮೂಲೆ ಅಸ್ತಿ. ಇದಾನೀಂ ಪರಿವ್ಯಯೇಭ್ಯಃ ಪರಿಶ್ಚ ವಿಶ್ಚ ಅವಶ್ಚ ಪರಿಶ್ಚ ವಿಶ್ಚ ಅವಶ್ಚ ತೇಷಾಂ ಪರಿವ್ಯಯೇಭ್ಯಃ ಇತಿ ಭವತಿ. ಪರಿಶ್ಚ ವಿಶ್ಚ ಅವಶ್ಚ ತೇಷಾಂ ಪರಿವ್ಯಯೇಭ್ಯಃ ಅಸ್ತು. ಪರಿವ್ಯಯೇಭ್ಯಃ ಕ್ರಿಯಃ ಕ್ರಿಯಃ ಇತಿ ಕಃ ಧಾತುಃ ಸ್ವೀಕರ್ತವ್ಯಃ ಇತ್ಯುಕ್ತೆ ತತ್ರ ಕ್ರಯಾದಿಗಣೆ ಡುಕ್ರೀ ದ್ರವ್ಯ ವಿನಿಮಯೇ ಇತಿ ಧಾತುಃ ವಿದ್ಯತೆ. ಇದಾನೀಂ ಡುಕ್ರೀ ಇತ್ಯತ್ರ ಜ್ಞಿತ್ವಮಸ್ತಿ ಚಜಜಜನ ಚವರ್ಗಸ್ಯ ಅಂತಿಮ ಜ್ಞಿತ್ವಮಸ್ತಿ. ನಿತ್ವಾತ್ ಸ್ವರಿತಗೀತ ಕರ್ತೃಭಿಪ್ರಾಯೇ ಕ್ರಿಯಾಫಲೆ ಇತ್ಯನೇನ ಉಭಯಪದಿ ಪ್ರಾಪ್ತಿ ಅಸ್ತಿ. ಆತ್ಮನೇಪದಿತೋ ಪ್ರಾಪ್ತಿ ಅಸ್ತಿಯೇವ ಪರಸ್ಮೈಪದಿ ಪ್ರಾಪ್ತಿ ಅಪಿ ಅಸ್ತಿ. ತದಾ ಅನೇನ ಸೂತ್ರೇಣ ಸಂಕೋಚ ಕ್ರಿಯತೆ. ಪರಿ ಉಪಸರ್ಗ ಸಹಿತ ವಿ ಉಪಸರ್ಗ ಸಹಿತ ಅವ ಉಪಸರ್ಗ ಸಹಿತ ಕ್ರೀ ಧಾತೋ ಕಿಂ ಭವತಿ ಆತ್ಮನೇಪದಂ ಭವತಿ ಇತಿ ಸಂಕೋಚ ಕ್ರಿಯತೆ. ಅಕರ್ತ್ರಾಭಿಪ್ರಾಯಾರ್ಥಮಿದಂ ಇತ್ಯುಕ್ತೆ ಇದಾನೀಂ ಸ್ವರಿತಜ್ಞಿತ ಕರ್ತೃಭಿಪ್ರಾಯೇ ಕ್ರಿಯಾಫಲೆ ಇತಿ ಕರ್ತೃಭಿಪ್ರಾಯೇ ಕ್ರಿಯಾಫಲೆ ದ್ಯೋತ್ಯೇ ಸ್ವರಿತಜ್ಞಿತ್ವಾತ್ ಕಿಂ ಭವತಿ ಉಭಯಪದಿತ್ವಂ ಭವತಿ. ಇದಾನೀಂ ಅಕರ್ತ್ರಾಭಿಪ್ರಾಯೇ ಕ್ರಿಯಾಫಲೆ ಆತ್ಮನೇಪದಿಯೇವ ಭವತಿ ಇತಿ ಸೂಚನಾರ್ಥಂ ಇದಂ ಸೂತ್ರಂ. ಜ್ಞಾತಂ ವಾ? इति सूचनार्थम इदं सूत्रं विशेषता उच्यते। नो चेत् अत्र स्वरितगितः इत्यनेन सूत्रेणैव आत्मनेपदिप्राप्तिः आसीत् क्रीधातोः। पुनः किमर्थं वक्तव्यम् अस्माभिः इति उक्ते अकर्त्राभिप्रायार्थम् इदम् इति कौमुदीकारः वदति। तदनन्तरं परि वि अव इति उपसर्गसहित क्रीधातोः एव आत्मनेपदं भवति। अवगतं वा? विपराभ्यां जेः वि न डुक्रीं करणेन डुक्री द्रव्यविनिम डुक्री द्रव्यविनिमये लब्धं वा? डुक्री द्रव्यविनिमये इति धातुः। विपराभ्यां जेः इदानीं विश्च पराश्च विपरौ ताभ्यां विपराभ्यां अनुदात्तकित आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः सूत्रार्थः कथं भवति? विपरा इत्येताभ्यां परस्मात् जी धातोः जेः जी धातोः आत्मनेपदं भवति। इदानीं जी जये इति धातुः अस्ति। जी जये इदानीं जी जये इति धातुः स्वाभाविकतः परस्मैपदी अस्ति। शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी अस्य धातोः अस्ति। इदानीं विपराभ्यां जेः इत्यनेन सूत्रेण आत्मनेपदित्वम् विधीयते। एवं विपराभ्यां जेः इति सूत्रं शेषात् कर्तरि परस्मैपदम् इति सूत्रस्य अपवादः अस्ति। ज्ञायते विजयते पराजयते वि उपसर्गः अस्ति जी धातुः अस्ति अतः आत्मनेपदम् पराजयते इत्यत्रापि एवमेव। आङोदो नास्य विहरणे आङ्पूर्वात् ददातेर्मुखविकसनात् अन्यत्रार्थे वर्तमानात् आत्मनेपदं स्यात् इति सूत्रार्थः मूले अस्ति। प्रथमं पदच्छेदादिकं कुर्मः। आङोदो नास्य विहरणे आस्यस्य विहरणम् आस्य विहरणम् न आस्य विहरणम् अनास्य विहरणम् तस्मिन् अनास्य विहरणे आङः इति पञ्चम्यन्तम् दह इति पञ्चम्यन्तम्। अत्र दह इत्यनेन दा धातोः दह इति रूपं स्वीक्रियते। आस्यविहरणे इति सप्तमीविभक्ति एकवचनम् अस्ति। एवम् अनुदात्तगीत आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः। इदानीं किम् उच्यते? इत्युक्ते यदि आस्य विहरणार्थः न अस्ति तदा आङ् पूर्वक दा धातोः आत्मनेपदं भवति। आङ् पूर्वक दा धातोः आत्मनेपदं भवति इति सूत्रार्थः। आङ् पूर्वात् द ददातेः इत्युक्ते दा धातोः मुखविकसनात् अन्यत्र अर्थे मुखविकसनार्थः न स्यात् तदा आत्मनेपदं स्यात्। इदानीं डुदाय धाने इति दा धातुः, अस्य आङ् उपसर्गसहित यदि बहवः अर्थाः समभवन्ति, इदानीं विद्याम् आदत्ते इति उदाहरणे आङ्पूर्वक दादातोः आदत्ते इति रूपसिद्धिः अस्ति। डुदाय दाने इति जुहोत्यादिगणीय धातुः, अस्य रूपम् एवं भवति आदत्ते आददाते आददते इत्यादि रूपाणि भवन्ति। इदानीं विद्यामादत्ते इत्यस्य अर्थः आस्य विहरणार्थः न, अतः आत्मनेपदम् अत्र भवति। इदानीं दलकृत्यम् उच्यते अनास्य इति किम्? मुखं व्याददाति, यदि मुखं व्याददाति इत्यत्र इदानीम् उपसर्गसहित वि आ उपसर्गसहित दा धातोः मुखविकसनम् इत्यर्थः अस्ति। बायन्नु तगिताने कनण् इति अर्थः अस्ति। यदि एतादृश अर्थः अस्ति चेत् तदा आत्मनेपदी न भवति, आत्मनेपदं न भवति, परस्मैपदमेव भवति। इदानीं दीक्षिताः किं कुर्वन्ति, अस्य सूत्रस्य स्व अभिप्रायं वदन्ति। एतावत्पर्यन्तम् अवगतं वा? आस्य ग्रहणम् अविवक्षितम्, विपादिकां व्याददाति व्याददति विपादिकां व्याददति व्याददाति इति भवेत्। अस्तु, आस्य ग्रहणम् अविवक्षितम्, अत्र दीक्षिताः वदन्ति वस्तुतः अस्मिन् सूत्रे आस्य ग्रहणम् इति न कर्तव्यम्। तर्हि अस्य सूत्रस्य स्वरूपं कीदृशं भवेत्? आङोदो विहरणे इति सूत्रं भवेत्। तदा अविहरणे इत्यस्य अर्थः न विकसनम्। एतस्मादेव विपादिकां व्याददाति इत्यादि स्थलेषु आत्मनेपदस्य निषेधः भवितुमर्हति। यदि आस्य शब्दस्य योगः भवति तदा उक्तस्थलेषु आत्मनेपदस्य निषेधः न सम्भवति। इदानीं पादस्फोटो विपादिका इति तत्र उदाहरणं विपादिकां व्याददाति इति दत्तम्। अत्र विपादिका इत्युक्ते पादस्फोटो विपादिका। पादे यदि स्फोटः इत्युक्ते कालल्लि यावदन गाय आगि आ गाय ओपन् आगिद्रे पादस्फोटवागिद्रे अदक्के विपादिका एंदु करेयुत्तारे। कन्नड भाषायां मया सुलभ अवगमनार्थम् उक्तम्। पादे यदि स्फोटः समभवति तस्य विपादिका इति उच्यते। यदि तस्यापि तत्र विकसनं भवति चेत् तत्र अस्माभिः विपादिकां व्याददाति इत्यस्यापि अत्र निषेधः आत्रेपदनिषेधः अस्माभिः इष्टः। विपादिकां व्याददाति इत्यत्र आत्मनेपदपदस्य निषेधः अस्माभिः इष्टः। तद् यदि आस्यग्रहणम् अत्र क्रियते तदा विपादिकां व्याददाति इत्यत्र निषेधः न भवति। विपादिकां व्याददते इत्येव भवति। अतः दोषः समुद्भवति। अतः आस्यग्रहणम् अविवक्षितम्। वस्तुतः आस्यग्रहणम् अविवक्षितम् सूत्रकारेण प्रायः न अविवक्षितम् अत्र सूत्र न तत्र नापेक्षितम् इति दीक्षितानाम् अभिप्रायः। तत्र प्रश्नः क्रियते विद्यामादत्ते इत्यत्र कथम् इष्टसिद्धिः इत्यादि मुखं व्याददाति इत्यत्र कथम् इष्टसिद्धिः इत्युक्ते तत्र विहरणे इत्यस्मात् एव इष्टसिद्धिः क्रियते इति उत्तरम्। इदानीं नदीकूलं व्याददाति। नदीकूलं व्याददाति इत्यत्र कूलम् इत्युक्ते तत्र कालुवे इति कन्नडभाषायां वदन्ति। नदी कूलं व्याददाति। नदी किं करोति? कूलं व्याददाति। इट् ब्रेक्स् दि केनाल्स्। दि रिवर् ब्रेक्स् दि केनाल्स् इत्यादि स्थलेषु आत्मनेपदनिषेधः अस्माभिः आवश्यकम्। नो चेत् यदि आस्यशब्दस्य ग्रहणं भवति तदा अत्रापि निषेधः न सम्भवितुम् अर्हति। एवम् अत्र दीक्षिताः स्व अभिप्रायम् उक्त्वा आस्यग्रहणम् अविवक्षितम्। पराङ्गकर्मकाच्च निषेधः। ओ अस्तु, पराङ्गकर्मकाच्च निषेधः। इदानीं पराङ्गकर्मकान् न निषेधः। व्याददते पिपीलिकाः पतङ्गस्य मुखम्। इदानीं पिपीलिकाः किं कुर्वन्ति? पतङ्गस्य मुखं व्याददते। पतङ्गः इति कश्चन कीटविशेषः। पिपीलिकाः किं कुर्वन्ति? पतङ्गस्य मुखं तत्र विहरणं कुर्वन्ति। इत्युक्ते अत्र पिपीलिकाः स्वमुखमेव न विहरन्ति, परन्तु अन्यस्य पतङ्गस्य मुखं विहरन्ति। पराङ्गकर्मः पराङ्गकर्म अस्ति अत्र। अतः पराङ्गकर्मकान् न निषेधः। यदि पराङ्गकर्मः अस्ति तदा निषेधः न प्रवर्तते। इति उक्त्वा अत्र उदाहरणं व्याददते इति दत्तम्। एवं अनास्य विहरणे इति निषेधः न संभवति, यतो हि अन्यस्य आस्यम् अन्यस्य आस्यस्य विहरणम् अत्र अस्ति, अतः अत्र निषेधः न भवति। निषेधः न भवति इत्युक्ते आत्मनेपदं भवति इति अर्थः। इदानीम् अवगतं वा? अस्तु, क्रीडोनु सम्परिभ्यश्च। एतत् किञ्चित् दीर्घमस्ति, अग्रिमकक्षायां कुर्मः, यतोहि प्रारब्धे सति समापनीयम्। इदानीं सुलभमस्ति आत्मनेपदिप्रकरणम्, एवमेव पठितं चेत् ज्ञायते। अग्रिमसोमवासरे वयं पश्यामः। सोमवासरे इत्युक्ते मण्डे कक्षा अस्ति, अवश्यं कक्षा अस्ति। तत्र किं करोमि अहं, तत्र सार्धनववादने अहं प्रथमं लागिन् करोमि, तदनन्तरं वेबिनार् ऐडी यदस्ति तत् सर्वेभ्यः SMS द्वारा वा ईमेल् द्वारा वा सूचयामि, तदनन्तरं भवत्यः कृपया लागिन् कुर्वन्तु। joinwebinar.com साक्षात् गच्छतु, तत्र वेबिनार् ऐडी दत्त्वा लागिन् करोतु। डुदाय् दाने इति शुद्धधातोः डुदाय् दाने इति अर्थः ददाति। डुदाय् दाने इति जुहोत्यादि गणीयधातुः, अस्य दानमेव अर्थः, परन्तु उपसर्गसहितस्य तत्र विविधाः अर्थाः सम्भवन्ति, आददाते इत्यादि रूपं भवति। क्लेशः अस्ति वा? ओ एवम्, अस्तु, तदनुवर्तयामः। कर्तरिकर्मव्यतिहारे इत्यत्र सुलभमस्ति। कर्मव्यतिहारं नाम किम् इति तदेव ज्ञातव्यम् अस्माभिः। यदि क्रियाविनिमयं नाम अत्र अन्यस्य कर्म अन्यः करोति। इदानीं तत्र कर्मव्यतिहारे इत्यत्र स्थानत्रयं भवति। इदानीं शूद्रादियोग्यं कर्म यदि ब्राह्मणः करोति तदा इदानीम् व्यतिलुनीते इति अस्ति किल, अन्यस्य लवणम् अन्यः करोति। इदानीं लवणकार्यं कस्य? शूद्रस्य कार्यं तत्। ब्राह्मणः आगत्य लवणं करोति चेत्, सस्यानां लवणं करोति चेत्, तत्र क्रियाविनिमयः इष्यते अस्माभिः, तदा आत्मनेपदि भवति। सर्वत्र क्रियाविनिमय द्योतनार्थं तत्र व्यति इति वि अति इति उपसर्गद्वयम् अस्माभिः प्रयुज्यते। अन्यस्य योग्यम् अन्यः करोति, तत्र केवलं तत्र अन्यस्य कार्यम् अन्यः करोति इति न, कदाचित् सम्प्रहरन्ते राजानः इत्यादि स्थलेषु परस्परं ते प्रहरन्ति, एकः प्रहरति अन्यः अपि प्रहरति, परस्परं प्रहरन्ति, तदापि कर्मव्यतिहारः स्वीकर्तुं शक्यते इति अभिप्रायः। स एव उक्तं, व्यतिलुनीते इति उदाहरणं, लुनि छेदने इत्यस्मात् धातोः तत्र प्रक्रिया शशोरल्लोपः इत्यादि तत्र अस्ति किल, तत्सर्वं प्रक्रिया विशेषः इत्युक्ते दशगणीय प्रक्रिया विशेषः, तत्र किमपि नास्ति. तद् गिरिजामामि द्वारा ज्ञातुं शक्यते इति चिन्तयामि. यदि क्लेशः अस्ति चेत् अहम् अन्यस्मिन् दिने अवश्यं वक्ष्यामि. हा, इदानीं कान्सेप्ट् तु अवगतं कर्मव्यतिहारः नाम. पृथग् सूत्रस्य आरम्भणं कृतम् अत्र कर्मव्यतिहारे इति सूत्रं, पृथक् सूत्रस्य आरम्भः कृतः. अस्तु, श्रोत्रार्हन्ति च नैगुण्यैः महर्षिविरहर्दिवं तोष्टु यमानोऽप्यगुणो विभुर्विजयते तराम्. सोमवासरे सार्धनववादने वयं मिलामः. राम राम राम. शुभरात्रि.